ओम नमो भगवते वासुदेवाय। अथ तृतीयोऽध्यायः। श्रीशुक उवाच, नाभिरपत्यकामो प्रजया मेरुदेव्या भगवन्तं यज्ञपुरुषमवहितात्मा यजत। तस्य वाव श्रद्धया विशुद्धभावेन यजतः प्रवर्ग्येषु प्रचरत्सु। द्रव्यदेशकालमन्त्रर्त्विग्दक्षिणाविधानयोगोपपत्या दुरधिगमोऽपि भगवान् भागवतवात्सल्यतया सुप्रतीक आत्मानमपराजितम् निजजनाभिप्रेतार्थविधित्सया गृहीतहृदयो हृदयङ्गमम् मनोनयनानन्दना वयवाभिराममाविश्चकार। अथः तमाविष्कृतभुजयुगलद्वयम् हिरण्मयम् पुरुषविशेषम् कपिशकौशेयाम्बरधरमुरसि विलसच्छ्रीवत्सललामम् दरवरवनरुहवनमालाच्छूर्यमृतमणिगदादिभिरुपलक्षितम् स्फुटकिरणप्रवरमुकुटकुण्डलकटककटिसूत्रहारकेयूरनूपुराद्यङ्गभूषणविभूषितमृत्विक्सदस्यगृहपतयोधना इवोत्तमधनमुपलभ्य स बहुमानमर्हणेनावनतशीर्षाण उपतस्थुः। ऋत्विज ऊचुः, अर्हसि मुहुररहत्तमार्हणमस्माकमनुपथानाम्। नमो नम इत्येतावत् सदुपशिक्षितम् कोऽर्हति पुमान् प्रकृतिगुणव्यतिकरमतिरनीश ईश्वरस्य परस्य प्रकृतिपुरुषयोरर्वाक्तनाभिर्नामरूपाकृतिभिरूपनिरूपणम्। सकलजननिकायवृजिन्निरसन शिवतमप्रवरगुणगणैकदेशकथनादृते परिजनानुरागविरचितसबलसंशब्दसलिलसितकिसलयतुलसिका दुर्वाङ्कुरैरपि सम्भृतया सपर्यया किल परमपरितुष्यसि। अथानयापि न भवत इज्ययोरुभारभरया समुचितमर्थमिहोपलभामहे। आत्मन एवानुसवनमञ्जसा व्यतिरेकेण बोभूयमाना शेषपुरुषार्थस्वरूपस्य किन्तु नाथाशिष आशासानामेतदपि सम्राधनमात्रम् भवितुमर्हति। तद्यथा बालिशानाम् स्वयमात्मनः श्रेयः परमविदुषाम् परमपरमपुरुष प्रकर्षकरुणया स्वमहिमानम् चापवर्गाख्यमुपकल्पयिष्यन् स्वयम् नापचित एवेतरवधिहोपलक्षितः। अथायमेव वरोऽर्हत्तमयर्हि बर्हिषि राजर्षेर्वरदर्षभो भवान् निजपुरुषेक्षणविषय आसीत्। असङ्गनिषितज्ञानानलविधूताशेषमलानाम् भवत्स्वभावानामात्मा रामाणाम् मुनीनामनवरत परिगुणितगुणगणपरममङ्गलायन गुणगणकथनोऽसि। अथ कथञ्चित् स्खलन क्षुत्पतन जृम्भण दुरवस्थानादिषु विवशानाम् न स्मरणाय ज्वरमरणदशायामपि सकलकश्मलनिरसनानि तव गुणकृतनामधेयानि वचनगोचराणि भवन्तु। किञ्चायम् राजर्षिरपत्यकामः प्रजाम् भवादृशीमाशासान ईश्वरमाशिषाम् स्वर्गापवर्गयोरपि भवन्तमुपधावति। प्रजायामर्थप्रत्ययो धनदमिवा धनः फलीकरणम् को वा इह ते पराजितो पराजितया मायया नवसितपदव्यानावृतमतिर्विषयविषरयानावृतप्रकृतिरनुपासितमहच्चरणः। यदुह वाव तव पुनरदभ्रकर्तरिह समाहूतस्तत्रार्थधियाम् मन्दानाम् नस्तद्यद्देवहेलनम् देवदेवार्हसि साम्येन सर्वान् प्रतिवोढुमविदुषाम्। श्रीशुक उवाच, इति निगदेनाभिष्टूयमानो भगवान् निमिषर्षभो वर्षधराभिवादिताभिवन्दितचरणः सदयमिदमाह। श्रीभगवानुवाच, अहो बताह मृषयो भवद्भिरवितथ गीर्भिर्वरमसुलभमभियाचितो यदुमुष्यात्मजो मया सदृशो भूयादिति ममाहमेवाभिरूपः। कैवल्या तथापि ब्रह्मवादो न मृषा भवितुमर्हति ममैव हि मुखम् यद्विजदेवकुलम्। तथा अग्निध्रियेंश कलयावतरिष्याम्यात्मतुल्यमनुपलभमानः। श्रीशुक उवाच, इति निशामयन्त्या मेरुदेव्याः पतिमभिधायान्तर्दधे भगवान्। बर्हिषि तस्मिन्नेव विष्णुदत्त भगवान् परमर्षिभिः प्रसादितो नाभेः प्रियचिकीर्षया तदवरोधायने मेरुदेव्याम् धर्मान् दर्शयितु कामो वातरसनानाम् श्रमणानाम् ऋषीणाम् ऊर्ध्वमन्थिनाम् शुक्लया तनुवावततार। ओम स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चमस्कन्धे नाभिचरिते ऋषभावतारो नाम तृतीयोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुशासि माम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।